ओम नमो भगवते वासुदेवाय। अथ चतुर्थोऽध्यायः। उद्धव उवाच, अथ ते तदनुज्ञाता भुक्त्वा पीत्वा च वारुणी, तया विभ्रंशितज्ञान दुरुक्तैर्मर्मपस्पृशुः, तेषां मैरेयदोषेण विषमीकृतचेतसाम्। निम्लोचतिरवावासीद् वेणूनामिव मर्दनम्। भगवान् स्वात्ममायाया गतिं तामवलोक्य सः सरस्वतीमुपस्पृश्य वृक्षमूलमुपाविशत्। अहं चोक्तो भगवता प्रपन्नार्तिहरेणः, बदरीं त्वं प्रयाहीति स्वकुलं सञ्जिहीर्षुणा, अथापि तदभिप्रेतं जानन्नः मरिन्दम, पृष्ठतोऽन्वगमं भर्तु पादविश्लेषणाक्षमः। अद्राक्षमेकमासीनं विचिन्वन्दयितं पतिं, श्रीनिकेतं सरस्वत्यां कृतकेतमकेतनं, श्यामावदातं विरजं प्रशान्तारुणलोचनं, दोर्भिश्चतुर्भिर्विदितं पीतकौशाम्बरेण च, वाम ऊरावधिश्रित्य दक्षिणाङ्ग्रिसरोरुहम्, अपाश्रितार्भकाश्वत्थ मकृशं त्यक्तपिप्पलम्। तस्मिन् महाभागवतो द्वैपायन सुहृत्सखा, लोकाननुचरन् सिद्ध आससाद यदृच्छया, तस्यानुरक्तस्य मुनेर्मुकुन्दः प्रमोदभावानतकन्धरस्य, आशृण्वतो मामनुरागः स समीक्षया विश्रमयन्नुवाच। श्रीभगवानुवाच, वेदाहमन्तर्मनसीप्सितं ते ददामि यत्तद्दुर्वापमन्यैः, सत्रे पुरा विश्वसृजां वसूनां मत्सिद्धिकामेन वसो त्वयेष्टः, स एष साधो चरमो भवानामासादितस्ते मदनुग्रहो यत्, यन्मां त्रिलोकान् रह उत्सृजन्तं दिष्ट्यादिदृष्ट्वान् विशदानुवृत्त्या, पुरा मया प्रोक्तमजायनाभ्ये पद्मे निषण्णाय ममादिसर्गे, ज्ञानं परं मन्महिमावभासं यत्सूरयो भागवतं वदन्ति, इत्यादृतोक्तः परमस्य पुंसः प्रतिक्षणानुग्रहभाजनोऽहम्, स्नेहोत्थरो मा स्खलिताक्षरस्थम्। मुञ्चन्छु च प्राञ्जलिराबभाषे, कोऽन्वीषते पादसरोजभाजां सुदुर्लभोऽर्थेषु चतुर्ष्वपीह, तथापि नाहं प्रवृणोमि भूमन् भवत्पदां भोजनिषेवणोत्सुकः। कर्माण्यनीहस्य भवो भवस्य ते दुर्गाश्रयोथारि भयात् पलायनम्, कालात्मनो यत्प्रमदायुताश्रयः स्वात्मन् रते खिद्यति धीर्विदामिह, मन्त्रेषु मां वा उपहूय यत्त्वमकुण्ठिताखण्ड सदात्मबोधः, पृच्छेः प्रभो मुग्धैवा प्रमत्तस्तन्नो मनो मोहयतीव देव, ज्ञानं परं स्वात्मरः प्रकाशं प्रोवाच कस्मै भगवान् समग्रम्, अपिक्षमं नो ग्रहणाय भर्तर्वदाञ्जसा यद्वृजिनं तरेम, इत्यावेदितहार्दाय मह्यं स भगवान् परः, आदिदेशारविन्दाक्ष आत्मनः परमां स्थितिम्, स एव माराधितपादतीर्थादधीततत्त्वात्मविबोधमार्गः, प्रणम्य पादौ परिवृत्य देवमिहागतोऽहं विरहातुरात्मा, सोऽहं तद्दर्शनाल्लाद वियोगार्तियुतप्रभो, गमिष्येदयितं तस्य बदर्याश्रममण्डलम्, यत्र नारायणो देवो नरश्च भगवान् ऋषिः, मृदुतीव्रं तपो दीर्घं ते पाते लोकभावनौ। श्रीशुक उवाच, इत्युद्धवादुपाकर्ण्य सुहृदां दुःसहं वधम्, ज्ञानेनासमयच्छत्ता शोकमुत्पतितं बुधः, सतं महाभागवतं व्रजन्तं कौरवर्षभः, विश्रम्भादभ्यधत्तेदं मुख्यं कृष्णपरिग्रहे। विदुर उवाच, ज्ञानं परं स्वात्मरः प्रकाशं यदाह योगेश्वर ईश्वरस्ते, वक्तुं भवान्नोऽर्हति यद्धि विष्णोर्भृत्या स्वभृत्यार्थकृतश्चरन्ति। उद्धव उवाच, ननु ते तत्त्वसम्राभ्य ऋषिः कौशारवोऽन्ति मे, साक्षात् भगवता दिष्टो मर्त्यलोकं जिहासता। श्रीशुक उवाच, इति सह विदुरेण विश्वमूर्तेर्गुणकथया सुधया प्लावितोरुतापः, क्षणमिव पुलिने यमस्वसुस्तां समुषित उपगविर्निशां ततोगात्। राजोवाच, निधनमुपगते सुवृष्णिभोजेष्वधिरथयूथपयूथपेषु मुख्यः, स तु कथमवशिष्ट उद्धवो यद्धरिरपि तत्यजाकृतिं त्रधीशः। श्रीशुक उवाच, ब्रह्मशापापदेशेन काले नामोघवाञ्छितः, समृत्य स्वकुलं नूनं त्यक्षन् देहमचिन्तयत्, अस्माल्लोकादुपरते मयि ज्ञानं मदाश्रयम्, अर्हत्युद्धव एवाद्धा सम्प्रत्यात्मवतां वरः, नोद्धवोऽण्वपि मन्यूनो यद्गुणैर्नार्दितप्रभुः, अतो मद्वयुनं लोकं ग्राहयन्निहतिष्ठतु। एवं त्रिलोकगुरुणा सन्दिष्टः शब्दयोनिना बदर्याश्रममासाद्य हरिमीजे समाधिना, विद्रोप्युद्धवाच्छ्रुत्वा कृष्णस्य परमात्मनः, क्रीडयोपात्तदेहस्य कर्माणि श्लाघितानि च, देहन्यासं च तस्यैवं धीराणां धैर्यवर्धनम्, अन्येषां दुष्करतरं पशूनां विक्लवात्मनाम्, आत्मानं च कुरु श्रेष्ठ कृष्णेन मनसेक्षितम्। ध्यायन् गते भागवते रुरोध प्रेम विह्वलः, कालिन्द्याः कतिभिः सिद्ध अहोभिर्भरतर्षभः। प्रापद्यत स्वसरितम् यत्र मित्रा सुतो मुनिः। ओम् स्वस्ति श्रीमद्भागवते महापुराणे पारमहंस्याम् संहितायाम् तृतीयस्कन्धे विदुरोद्धवसंवादे चतुर्थोऽध्यायः। श्रीकृष्णार्पणमस्तु। नमोऽस्तु ते महायोगिन् प्रपन्नमनुषाधिमाम् यथा त्वच्चरणाम्भोजे रतिः स्यादनुपायिनी।